ॐ नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। मैत्रेय उवाच, चरमसद्विशेषाणामनेको संयुतः सदा परमाणुस्स विज्ञेयो नृणामैक्यभ्रमो यतः। सत एव पदार्थस्य स्वरूपावस्थितस्य यत् कैवल्यं परममहान् विशेषो निरन्तरः। एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग् विभुः। सकालः परमाणुर्वै यो भुङ्क्ते परमाणुताम्, सतो विशेषभुग्यस्तु सकालः परमो महान्। अणुर्द्वौ परमाणु स्यात्त्रसरेणुस्त्रयः स्मृतः, जालार्करस्म्यवगतः खमेवानुपतन्नगात्। त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिस्मृतः, शतभागस्तु वेदः स्यात् तैस्त्रिभिस्तु लवः स्मृतः। निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः, क्षणान् पञ्चविदुः काष्ठां लघुता दश पञ्च च, लघूनि वै समाम्नाता दश पञ्च च नाडिका। ते द्वे मुहूर्तः प्रहरः षड्यामः सप्तवान्द्रिणां, द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः, स्वर्णमाशैकृतच्छिद्रं यावत्प्रस्थजलप्लुतं, यामाश्चत्वारश्चत्वारो मर्त्यानामहनि उभे, पक्ष पञ्चदशाहानि शुक्लः कृष्णश्च मानद। तयो समुच्चयो मास पितॄणां ततहर्निशं, द्वौ तावृतौ सडयनं दक्षिणं चोत्तरं दिवि। अयने चाहनि प्राहुर्वत्सरो द्वादश स्मृतः, संवत्सरशतं द्रीणां परमायुर्निरूपितं। ग्रहक्षतारा चक्रस्थः परमाण्वादिना जगत्, संवत्सरावसानेन पर्येत्य निमिषो विभुः। संवत्सरः परिवत्सर इडावत्सर एव च, अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते। यः सृज्य शक्तिमुरुधोच्छ्वसयन् स शक्त्या पुंसो भ्रमाय द्विविधावति भूतभेदः, कालाख्यया गुणमयं क्रतुभिर्वितन्वन्तस्मै बलिं हरत वत्सर पञ्चकाय। विदुर उवाच, पितृदेवमनुष्याणामायुः परमिदं स्मृतं, परेषां गतिमाचक्ष्व ये स्युः कल्पात् बहिर्विदः। भगवान् वेदकालस्य गतिं भगवतो ननु, विश्वं विचक्षते धीरा योगराध्येन चक्षुषा। मैत्रेय उवाच, कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगं, दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितं, चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमं, सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च, सन्ध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः। तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते, धर्मश्चतुष्पान् मनुजान् कृते समनुवर्तते। स एवान्येष्वधर्मेण व्यतिपादेन वर्धता, त्रिलोक्या युगसाहस्रं बहिरा ब्रह्मणो दिनं, तावत्येव निशातात यन्निमीलति विश्वसृक्। निशावसान आरब्धो लोककल्पोऽनुवर्तते, यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश। स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां एकसप्ततिम्, मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः, भवन्ति चैव युगपत्सुरेशाश्चानुये च तान्। एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः, तिर्यङ् नृपितृदेवानां सम्भवो यत्र कर्मभिः, मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः। मन्वादिभिरिदं विश्वमवत्युदितपौरुषः, तमो मात्रामुपादाय प्रतिसंरुद्धविक्रमः। कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये, तमेवान्वपि धीयन्ते लोकाभूरादयस्त्रयः। निशायामनुवृत्तायां निर्मुक्तशशिभास्करं, त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना, यान्त्यूष्मणामहर्लोकाज्जनं भृग्वादयोर्दिताः। तावत्त्रिभुवनं सद्य कल्पान्तैधितसिन्धवः, प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः। अन्तः स तस्मिन् सलिल आस्तेनन्तासनो हरिः, योगनिद्रानिमीलाक्षस्तूयमानो जनालयैः। एवंविधैरहोरात्रैः कालगत्योपलक्षितैः, अपक्षितमिवास्यापि परमायुर्वयः शतं, यदर्धमायुषस्तस्य परार्धमभिधीयते। पूर्वः परार्धोपक्रान्तो यपरोऽद्य प्रवर्तते, पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत्। कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः, तस्यैव चान्ते कल्पोऽभूत् यं पाद्ममभिचक्षते। यद्धरेर्नाभि सरस आसील्लोकसरोरुहम्, अयं तु कथितः कल्पो द्वितीयस्यापि भारत। वाराह इति विख्यातो यत्रासीत् सूकरो हरिः। कालोऽयं द्विपदार्थाख्यो निमेष उपचर्यते। अव्याकृतस्यानन्तस्य अनादिर्जगदात्मनः। कालोऽयं परमाण्वादिर् द्विपरार्धान्त ईश्वरः। नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनां विकारैः सहितो युक्तैर्विशेषादिभिरावृतः। आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः। दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् लक्ष्यतेऽन्तर्गतास्यान्येकोटिशो ह्यण्डराशयः। तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् विष्णोर्धामपरं साक्षात् पुरुषस्य महात्मनः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।